इदम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। केन्द्रीय मन्त्रिमण्डलेन विमानन परिवहन मार्ग आधारभूत संरचना क्षेत्रेष् ETF मूल्यस्य स्थिरीकरणार्थं तैल विपणन समवायेभ्यः सहस्रकोटि रूप्यकाणां आय व्यय सहायतां प्रदातुं कतिपयाः महत्वपूर्णाः योजनाः अनुमोदिताः। कर्णाटक राज्यस्य नूतन मुख्यमन्त्री DK शिवकुमारः शपथग्रहणं कृतवान्। पश्चिम बंगालस्य तृणमूल कांग्रेस दलात् निष्कासितः TMC विधायक ऋतव्रत बनर्जी इत्यनेन उक्तं यत् पक्षे प्रायः 60 विधायकाः सन्ति। दिल्ली नगरस्य मालवीय नगरे विश्रांति निलये भीषणाग्निकाण्डः 21 जनाः मृताः। अपि च भारतं 25.2000 वर्षे विश्वस्य द्वितीयं बृहत्तमं सौर विकास विपणकं जातम्। इदानीं वार्ताः विस्तरेण। केन्द्रीय मन्त्रिमण्डलेन विमानन परिवहन मार्ग आधारभूत संरचना क्षेत्रेष् कतिपयाः महत्वपूर्णाः योजनाः अनुमोदिताः। पश्चिम एशिया संकट कारणेन वर्धितेष् इन्धन मूल्येष् भारतीय विमान सेवानां कृते विमान इन्धनस्य अर्थात् ETF मूल्यस्य स्थिरीकरणार्थं तैल विपणन समवायेभ्यः सहस्रकोटि रूप्यकाणां आय व्यय सहायतां प्रदातुं प्रशासनं निर्णयं कृतवत्। सूचना प्रसारण मंत्री अश्विनी वैष्णव अवदत् यत् एतेन विमानन क्षेत्र संबद्धाः प्रायः 77 लक्ष आजीविकाः सुरक्षिताः भविष्यन्ति। एषा सहायता योजना 36 मास पर्यन्तं प्रवर्तिष्यते। मन्त्रिमण्डलेन दिल्ली निकटवर्ति क्षेत्रे वायु प्रदूषण नियन्त्रणार्थम् अपि एकस्याः बृहत्याः योजनायाः अनुमोदनं कृतम्। आर्थिक सम्बद्धया मन्त्रिमण्डलीय समित्या ओडिशा राज्ये रामेश्वरात् पारादीप पर्यन्तं 63 अधिक 100 किलोमीटर परिमितस्य नूतन तटीय राजमार्ग निर्माणाय अनुमतिः प्रदत्ता। एतद् अतिरिक्तं समित्या बिहार राज्ये राष्ट्रिय राजमार्गयोः 31 तथा 31 अधिक 200 च इत्येतयोः खगड़िया पूर्णिया खण्डस्य चतुर्पथ परियोजना अपि अनुमोदिता। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य राष्ट्रिय आदिवासी सम्मेलनस्य उद्घाटनं कृतवती। नवदिल्ल्याम् आयोजितायाम् एकीकृत जनजातीय विकास समवायानां तथा एकीकृत जनजातीय विकासायोगस्य च विस्तार विषयिकायां समायोजितायां सभायां राष्ट्रपतिः अवदत् यत् देशव्यापिनः जनजातीय समाजस्य संस्कृतिः अत्यन्ता समृद्धा अस्ति, अतः जनजातीय समुदायस्य उन्नत्यर्थाः विशेष प्रयत्नाः करणीयाः। तया उक्तं यत् विकास कार्याणि अन्तिम गृहं यावत् अन्तिम ग्रामं यावत् च अवश्यं प्राप्नुयुः। राष्ट्रपतिः चिन्ताम् अपि व्यक्तीकृतवती यत् अद्यापि केचन जनजातीय वर्गाः शासनस्य विविधाभिः योजनाभिः अनभिज्ञाः सन्ति।
PM जनमन योजना के तहत जनजातीय समुदाय में भी सबसे पिछड़े समूहों के 20,000 से अधिक गांव तक विकास कार्यक्रम को पहुंचाने का लक्ष्य है। हम सब जानते हैं 75 जो ग्रुप्स वो है PVTG सबसे पिछड़े अभी भी कोई पेड़ के मंच के पे रहते हैं, उनके कोई जमीन नहीं, जमीन था लेकिन रिकॉर्डेड नहीं, इसलिए उनको जमीन देकर घर बनाना, उनके हर चीज के लिए अधिकारी लोगों को जितने कर्मचारी लोगों का दायित्व तो है।
राष्ट्रपति ही सर्वासाम संस्थानाम हितधारकान आहूतवती यत् जनजातीय युवभ्यः सम्मान जनक जीविकायाः तथा प्रत्येकं जनजातीय बालकाय विद्यालय शिक्षायाः सुनिश्चितीकरणं क्रियताम्।
ये दूरदराज के लोग जो जंगलों में रहते हैं उन तो एक रोड मैप बनाना चाहिए। आप कौन सी गांव को कवर किया, कौन सी पॉपुलेशन के थे, ट्राइबल के कितने लोग हैं, कहां तक हम पहुंच पाए, कहां तक नहीं पाए। पढ़ा लिखा होते हुए भी बहुत लोग बहुत चीजें जानते हैं लेकिन वो खुलते नहीं, लेकिन उनको खुलना पड़ेगा, शामिल होना पड़ेगा देश के विकास के लिए, समाज के विकास के लिए, आदिवासी लोगों को आगे लाने के लिए तो खुद को ही कुछ करना पड़ेगा।
कर्णाटकस्य नूतन मुख्यमंत्री DK शिवकुमारः शपथग्रहणं कृतवान्। कर्णाटक राज्ये कांग्रेस विधानमण्डलस्य दलस्य नेता DK शिवकुमारः अद्य बेंगलुरु नगरे राज्यस्य 25 मुख्यमंत्री रूपेण शपथग्रहणं कृतवान्। राज्यपालः थावरचन्द गहलोतः तस्मै पदस्य गोपनीयतायाश्च शपथं प्रदापितवान्। वरिष्ठ कांग्रेस नेता डॉ जी परमेश्वरः उपमुख्यमंत्री पदेन शपथं गृहीतवान्। अन्ये च द्वादश मन्त्रिणः अपि मन्त्रिपरिषदि सम्मिलिताः। प्रधानमन्त्री नरेन्द्र मोदी मुख्यमन्त्रिणे शुभकामनाः प्रदत्तवान्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम बंगालस्य पूर्वसत्तारूढ दले तृणमूल कांग्रेस दले आन्तरिक मतभेदाः प्रतीताः। दलात् निष्कासितः टीएमसी विधायकः ऋतव्रत बनर्जी इत्यनेन उक्तं यत् तस्य पक्षे प्रायः षष्टि विधायकाः सन्ति। अस्य कथनस्य कारणेन राज्यविधानसभायां सत्ता संतुलन परिवर्तनस्य सम्भावनां प्रति चर्चाः तीव्राः जाताः। तस्य समूहेन विधानसभायाः अध्यक्षाय रतेन्द्र बोस महोदयाय पत्रं प्रेषितं यत् स्वदलस्य वास्तविक तृणमूल कांग्रेस इति नाम्ना मान्यतां दातुम् आग्रहः कृतः। अस्मिन् अन्तरे पूर्वमुख्यमन्त्री ममता बनर्जी कोलकाता नगरे आयोजितायां जनसभायां भारतीय जनता पार्टी इत्यस्य उपरि दलविभाजनस्य षड्यन्त्र रचनायाः आरोपं कृतवती। एतेषां राजनैतिक घटनाक्रमाणां प्रति सम्पूर्ण राज्यस्य दृष्टिः केन्द्रीभूता वर्तते। दिल्ली नगरस्य मालवीय नगरे विश्रान्ति निलये भीषणाग्नि कण्डः एकविंशति जनाः मृताः। राष्ट्रिय राजधान्यां दिल्ल्यां मालवीय नगर क्षेत्रस्य एकस्मिन् विश्रान्ति निलये भीषणाग्नि कण्डे एकविंशति जनाः मृत्युम् उपगताः, अनेके च आहताः अभवन्। दक्षिण दिल्ल्यारक्षि विभागस्य उपायुक्तः अनन्त मित्तलः अवदत् यत् अग्निशमन विभागस्य अष्टभिः वाहनैः सह अग्निः नियन्त्रितः। आरक्षिणाम् अग्निशमनस्य तथा अन्येषाम् आपत्कालिक सेवानां संयुक्त प्रयत्नैः चत्वारिंशत् अधिकाः जनाः सुरक्षितरूपेण उद्धृताः, चिकित्सोपचारार्थं च चिकित्सालयेषु प्रेषिताः। प्रधानमन्त्री नरेन्द्र मोदी, राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, गृहमन्त्री अमित शाह तथा दिल्ली राज्यस्य मुख्यमन्त्री रेखा गुप्ता अस्मिन् दुःखदे घटनाक्रमे शोकं प्रकटितवन्तः। वार्षिक सौर क्षमता वृद्धौ भारतम् अमेरिकाम् अतिक्रमितवत्। भारतं 25,000+ वर्षे विश्वस्य द्वितीयं बृहत्तमं सौरविकास विपणकम् अभवत्। भारते स्थापित सौरक्षमतायाः उल्लेखनीयं 55,000+ GW परिमितं अतिक्रमितम् अस्ति, येन देशस्य 50% जीवाश्महीन इन्धनक्षमतायाः लक्ष्यं साधयितुं नियतसमयात् पूर्वमेव तस्य राष्ट्रिय निर्धारितं योगदानं पूरयितुं च साहाय्यं भवति। केन्द्रीय नवीन नवीकरणीय ऊर्जा मन्त्री प्रह्लाद जोशी वर्यः अद्य उक्तवान् यत् देशस्य सौर विकास गाथा वैश्विक मानदण्डानि स्थापयति। अरावली पर्वत श्रेण्याः सीमांकन समीक्षार्था सर्वोच्च न्यायालयेन विशेषज्ञ समितिः निर्मिता। सर्वोच्च न्यायालयेन अरावली पर्वत श्रेण्याः परिभाषा सीमांकन सम्बद्ध विषयाणां स्वतन्त्र समीक्षार्थं उच्चाधिकार युक्तायाः विशेषज्ञ समितेः गठनस्य निर्देशः प्रदत्तः। अस्याः समितेः अध्यक्षतां भारतीय वानिकी अनुसन्धान शिक्षा परिषदः महानिदेशिका कञ्चन देवी वहिष्यति। न्यायालयेन समितये चालितवर्षस्य अगस्तमासस्य एकत्रिंशत्तम दिनांकपर्यन्तं स्वप्रतिवेदनं समर्पयितुम् आदेशः प्रदत्तः। प्रधानमन्त्री नरेन्द्रमोदी अद्य केन्द्रीयमन्त्रिणः चिराग पासवानस्य लेखं सामाजिक अन्तर्जाल माध्यमेन प्रदर्शितवान्। तेन उक्तं यत् लद्दाखप्रदेशे प्राप्तम् अद्वितीयं वेरीफलं नवीनावसराणां विकासस्य प्रतीकः अस्ति। लेखे लद्दाखस्य उद्यमशीलतया तथा मूल्यवर्धनद्वारा विकासस्य नूतनद्वाराणि उद्घाटितानि इति प्रकाशितम्। इति वार्ताः।